ओम नमो भगवते वासुदेवाय। अथ पञ्चदशोऽध्यायः। श्रीशुक उवाच, भरतस्यात्मज सुमतिर्नामाभिहितो यमोह वाव केचित् पाखण्डिन ऋषभपदवीमनुवर्तमानम् चानार्या अवेदसमाम् नाताम् देवताम् स्वमनीषया पापीयस्या कलौ कल्पयिष्यन्ति। तस्मात् वृद्धसेनायाम् देवताजिन्नाम पुत्रोऽभवत्। अथासुर्याम् तत्तनयो देवद्युम्नस्ततो धेनुमत्याम् सुतः परमेष्ठी तस्य सुवर्चलायाम् प्रतीह उपजातः। या आत्मविद्यामाख्याय स्वयम् संशुद्धो महापुरुषमनुसस्मार, प्रतीहात् सुवर्चलायाम् प्रतिहर्त्रादयस्त्रय आसन्निज्या कोविदाः सूनवः। प्रतिहर्तुः स्तुत्यामज भूमाना वजनिषाताम्। भूम्नऋषिकुल्यायामुद्गीथस्ततः प्रस्तावो देवकुल्यायाम् प्रस्तावान्युत्सायाम् हृदयज आसीद्विभुर्विभोरत्याम् च पृथुषेणस्तस्मान्नक्ताकूत्याम् जज्ञे नक्ताद्धृतिपुत्रो गयो राजर्षिप्रवर उदारश्रव अजायत। साक्षात् भगवतो विष्णोर्जगद्रिरक्षिषया गृहीतसत्त्वस्य कलात्मवत्त्वादिलक्षणेन महापुरुषताम् प्राप्तः। स वै स्वधर्मेण प्रजापालनपोषणप्रीणनोपलालनानुशासनलक्षणेनेद्यादिना च भगवति महापुरुषे परावरे ब्रह्मणि सर्वात्मनार्पितपरमार्थलक्षणेन ब्रह्मविच्चरणानुसेवयापादितभगवद्भक्तियोगेन चाभीक्ष्णशः परिभावितातिशुद्धमतिरुपरतानात्म्य आत्मनि स्वयमुपलभ्यमान ब्रह्मात्मानुभवोऽपि निरभिमान एवावनिमजूगुपत्। तस्येमाम् गाथाम् पाण्डवेयपुराविद उपगायन्ति। गयम् नृपः कः प्रतियाति कर्मभिर्यज्वाभिमानी बहुविद्धर्मगोप्ता। समागतश्रीः सदसस्पतिः सताम् सत्सेवकोऽन्यो भगवत्कलामृते। यमभ्यषिञ्चन् परया मुदा सतीः सत्याशिषो दक्षकन्या सरिद्भिः। यस्य प्रजानाम् दुदुहे धराशिषो निराशिषो गुणवत् सश्नुतोधाः। छन्दांस्य कामस्य च यस्य कामान् दुदूहुराजरुरथो बलिम् नृपाः। प्रत्यञ्चितायुधि धर्मेण विप्रा यदाशिषाम् षष्ठमंशम् परेत्य। यस्याध्वरे भगवानध्वरात्मा मघो निमाद्यत्युरुसोमपीथे श्रद्धा विशुद्धा चलभक्तियोग समर्पिते ज्याफलमाजहार। यत्प्रीणनाद्बर्हिषि देवतिर्यम् मनुष्यवीरुद्रिणमाविरिञ्चात्। प्रीयेत सद्यः सह विश्वजीवः प्रीतस्वयम् प्रीतिमगाद्गयस्य गयाद्गयन्त्याम् चित्ररथः सुगतिरवरोधन इति त्रयः पुत्रा बभूवुश्चित्ररथादूर्णायाम् सम्राडजनिष्ट। तत उत्कलायाम् मरीचिर्मरीचेर्बिन्दुमत्याम् बिन्दुमानुदपद्यत। तस्मात् सरघायाम् मधुर्नामा भवन्मधोः सुमनसि। वीरव्रतस्ततो भोजायाम् मन्थुप्रमन्थू जज्ञाते मन्थोः सत्यायाम् धौवनस्ततो दूषणायाम् त्वष्टाजनिष्ट। त्वष्टुर्विरोचनायाम् विरजो विरजस्य शतजित्प्रवरम् पुत्रशतम् कन्या च विसूच्याम् किल जातम्। तत्रायम् श्लोकः, प्रय्यव्रतम् वंशमिमम् विरजश्चरमोद्भवः अकरोदत्यलम् कीर्त्या विष्णुः सुरगणम् यथा। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चमस्कन्धे प्रियव्रतवंशानुकीर्तनम् नाम पञ्चदशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम् भोजे रतिः स्यादनपायिनी।